पान्तमावो अन्धस इन्द्रमभिप्रगायत विश्वासाहम् सदक्रतुम्बम् वेष्टम् चरणीनाम् पुरोहूतम् पुरुष्टुतम् गाधान्याहम् सनश्रुतम् इन्द्रजिति ब्रवीतन इन्द्रजिन्नो महानाम् दाता वाजानाम् मृजो माङ्गाभिग्माजावत् अपादुसुदक्षस्य प्रभोषिणः इन्दोरिन्द्रोजवासिरः तम् अभिप्रार्चदेन्द्रम् सोमस्य पीतये सदीर्घस्य वर्धनम् अस्य पीत्वा मदानाम् देवो देवस्य उजसा विश्वाभिभुवनाभुवत् यमो वसत्रासाहम् विश्वासुगेष्वायतम् आच्यावयस्यूतये युध्वम् सन्दामनर्वाणम् सोमपामनभच्युतम् न रामभार्यक्रतुम् शिक्षा न इन्द्रराजा पुरुविद्वाङ्गीषम अपानः पार्येधने अधश्चिदिन्द्रण उपाया हि शतवाजया इषा सहस्रवाजया अजामजीवतो धियोर्वद्भिश्चक्रगोदरे देव मृत्सुवद्रिवः मजमुत्पाशदक्रगोगापोदयवशेष्वा मुक्षेणूरमिलामसि विश्वाहिमज्जत्मनानु कामाशदक्रतो अगन्नवज्रन्नाससाः वेषपुत्रसभसो वृत्रङ्गामरादयः न त्वामिन्द्रातिरिच्यते स नो वृषन् सनिष्टया सम्घोरजाद्रभित्वा जिया विड्ढिपुरम् ह्या यस्ते नूनम् सदक्रतमिन्द्रजुम्नितमोमदाः तेन नूनम् मदे मदेः यस्ते चित्रस्रावस्तमो ययिन्द्रवृत्रहन्तमः यवो योजातमोमदाः जिह्मा यस्ते अद्रिभस्त्वा दत्तः सत्यसोमपाः विश्वासुदस्मकृष्टिषु इन्द्रायमध्वने सुतम् वरिष्ठो भन्तु नो गिराः अर्कमर्चन्तु कारवाः यस्मिन् विश्वाधिश्रियोरणन्ति सप्त संसदाः इन्द्रम् सुदेह वामहे तृकद्रुकेषु चेतनम् देवासो यज्ञमत्मत तमिद्वर्धन्तु नो गिराः आत्वापि सन्विन्दवः समुद्रमेव सिन्धवः न त्वामिन्द्रादीच्यते दिव्यक्षमहिला वेषन् भक्षम् सोमस्य जागृते जयिन्द्रजठरेषु ते अलम् द्वयिन्द्रकुक्षये सोमो भवतु वृत्रहन् अरम् धामभ्य इन्दवः अरमस्वायगायति शुक्रकक्षो अरङ्गवे अरमिन्द्रस्य धाम्ने अरम् युष्मासु नः सोमेष्विन्द्रभूषसि अरम् ते शक्रधामने पराकाचिदद्रिवस्त्वाम् न क्षन्दनो गिराः अरङ्गमामते भयम् देवाह्यसि वीरयुदेवासूरभुतस्थिरः देवादेवाध्यम् मनाः एवारातिस्तु वीमघविश्वेभिर्धायि धातृभिः अथाचिलिन्द्रमे सचा मूढब्रह्मेव तन्त्रयुर्भुवो वाजानाम् पते मत्स्वासुतस्य वो मातः मायिन्द्राभ्या आदिशः सूरो अक्तुष्वायमन् रे मदत् त्वयेदिन्द्रयुजाभयम् प्रतिब्रुवीमहि स्पृधाः त्वमस्मा गन्तवस्मसि स्वामिद्धि त्वायवो ननो नो वदश्चरान् सखा जयिन्द्रकारवाः उद्वेदभिसृशामघम् वृषभङ्गर्यापसम् हस्तारमेषु सूर्य न भयो न पतिम् पुरो बिभेद बाह्वोजसः अहिन्द्रवृत्रहावधीर स न इन्द्रशिवः सखा स्वाभद्गो मध्यपमत् गुरुधारेव दोहते यदद्य कच्च वृत्रहन्नुदगा अभिसूर्य सर्वम् त्वदिन्द्रदेवसे यद्वा प्रवृद्धतत्त्वदेनम राजिति मन्यासे कुतो तत्सत्यमित्तव ये सोमासः परापति ये अर्वापति सुन्धिरे सर्वांस्ताम् इन्द्र गच्छसि तमिन्द्रम् वाजयामसि महे वृत्रा जहन्तवे स वृषा वृषभो भूमत् इन्द्रः सदा मने धृतवो ज्येष्ठः समदे हितः युम्ने श्लोकी स सोम्यः गिरावज्रोण संहृतः स बलो अनवच्युतः भक्षरुष्वस्त्रिदः दुर्गे छिन्नः सुखम् कृधि गृणान इन्द्रगिर्वनः त्वञ्चमघवन्वसाः यस्य धेनोचीतादिशम् न विनन्ति स्वराज्यम् न देवो नाभिगुर्जनाः अधा ते अप्रादिष्कृतम् देवी सुष्मम् समर्यतः उभेषु सि प्ररोदसी धारजः कृष्णासुरोहिणीषु च परिष्णेषु रुसत्पजाः यदहेरधत्विषो विश्वे देवासो अक्रमुः इदम् मृगस्य राङ्गमाः आदूमे निवरो भूभद्रत्रहादिष्टपौंसम् अजाधध्रुवस्त्रितः श्रुतम् वो वृत्रहन्तमम् दर्शनीयाम् आरुषे राधसे महे अजाधियाजागम् जया पुरूनामन् पुरुष्टुत यत्सोमे सोमहाभवः बोधिन्मनाजितस्तु नो वृत्रहाभूर्यासुः शृणोतु शक्र आशिषम् अया त्वम् न भूत्याभिप्रमन्दसे षन् अया सोदृभ्याभर कस्य वृषा सुते स चा नियुत्वान् वृषभोरणत् वृत्रः सोमपीतये अभीषु नस्त्वम् रजम् वन्दसा नः सहस्रणम् रजन्तापोधिदाशुषे पत्नीवन्तः सुतारिमभुषन्तो यन्ति वीदरेः अपाञ्जग्निजम् पुनः इष्टाहोत्रादृक्षतेन्द्रम् वृधासो अध्वरे अर्चाभृतमोजसा जिगत्यासधमाद्या हरिहिरण्यकेश्या वोढामभिप्रयोहितम् सुभ्यम् सोमास्तुतारिमेस्तीर्णम् बर्हिर्विभावसो सोद्रभ्यजेन्द्रमावह आदे दक्षम् विलोचनादधनरत्नाभिदाशुषे सोद्रभ्यजेन्द्रमर्चत आदे दधामीन्द्रियमुक्ता विश्वासदक्रतो सोद्रभ्य इन्द्रमणय भद्रम् भद्रम् नाभरेषमूर्जम् सदक्रतो यदिन्द्रमृळयासिनः स नो विश्वान्याभरसुभितानि सदक्रतो यदिन्द्रमृळयासिनः स्वामिद्वृत्रहन्तमसुतावन्तो हवामहे यदिन्द्रमृळयासिनः उपनोहरिभिः सुतम् जाहिमदानाम् पदे उपनोहरिभिः सुतम् विदायो वृत्रहन्तामो विद इन्द्रस्वतक्रातुः पुराणो हरिभिस्तुतम् त्वम् हि वृत्रहन्येणाम् पाता सोमा नामसि पुराणो हरिभिस्तुतम् इन्द्रजिषेदधातुनर्भक्षणामृभम् रयिम् वाजीरदातु वाजिनम् ऊर्धयति मरुताम् स्रभस्युर्माता मधूनाम् युक्तावह्नीरसानाम् यस्या देवा उपस्थे व्रता विश्वे धारयन्ते सूर्यामासादृशेकम् अत्सुरो विश्वे हर्या सदा गृणन्ति गारवा मरदस्वमाजीतये अयम् सुतः पिबन्त्यस्य मरुताः उदस्वराजो अश्विनाः पिबन्ति मित्रोर्जमादनाः भूतस्य वरुणः ऋषधस्थस्य जावतः उतोन्मस्य जोषमाम् इन्द्रस्तुतस्य गोमातः प्रादर्भोते मत्सति कदद्विषन्तसूरजस्थिर आपाजिभसृधाः अर्हन्ति भूतदक्षसः कद्वो अद्य महानाम् देवानामोऽर्णे मनाशरस्मवर्चसाम् आये विश्वापार्थिवानि पत्रसम् रोचनादिव मरुतः स्वमापीतये यान्नभूतरक्षसो दिवो वा मरुतो भुवे अस्य सोमस्य पीतये यान्नु ये विरोदसीतस्तभुर्मरुतो भुवे अस्य सोमस्य पीतये यन्नु मारुतम् गणम् गीरिष्ठाम् ऋषणम् भुवे अस्य सोमस्य पीतये आत्वा गिरो रथिवास्तु श्रुतेषु गिर्वनः अभित्वा समनुषदेन्द्रवत्सम् न मातराः आत्वा शुक्रादुच्यवस्तुदास इन्द्रगिर्वनः पिबात्वा अस्यान्धसहीन्द्रविश्वा सुते शिवम् पिबा सोमम् मदा जगमिन्द्रस्येनाभृतम् सुतम् संयस्तदीनाम् पतिराजा विश्रामसि श्रुतिहवम् तिरश्चायिन्द्रयस्त्वा स पर्यति सुवीर्यस्य गोमातो राजस्पूर्धिमहासि इन्द्रयस्तेन वीयसीम् गिरम् मन्द्रामजीजनत् चिकित्मन्मानसन्धिरम् रत्नामृतस्य विप्युषीम् समुष्टवा भजङ्गिर इन्द्र मुख्यानि वा पृथुः पुरोऽन्यस्य पौंस्याविषा सन्तो वनामहे एतोन्विन्द्रम् स्तवामसुखम् शुद्धे रसाम्ना शुद्धैरुक्थैर्वा वृद्ध्वांसम् शुद्ध आशीर्वान्मवत्तु इन्द्रशुद्धो नागहि शुद्धः शुद्धाभिरुचिभिः शुद्धो रयम् निधारय शुद्धो मा मध्ये सोम्यः इन्द्रशुद्धो हिनो रयम् शुद्धो रत्नानि गादुषे शुद्धो रत्नानि विघ्नसे शुद्धो वाजम् शिशासि अस्मापुषासादीरम् दयामिन्द्रा जनक्तमूर्णाः सुवाचाः अस्मावो मातरः सप्ततस्तर्नृभ्यस्तराय सिन्धवस्तु पाराः अधीविद्धाविन्द्रेणाजिगस्वाश्रिसप्तदानुसंहीतागिरीणाम् देवो नवर्गस्तु दुर्यात्यानिप्रवृद्धो वृषभश्चकार इन्द्रस्य वज्र आयसो निविश्व इन्द्रस्य वाग्भोजिष्ठभोजाः शीर्णन्निन्द्रस्य कृतावो निरेक आसन्नेषम् दश्रुत्याः भुपाके मन्येत्वा यज्ञियम् यज्ञियानाम् मन्येत्वा च रमच्यूतानाम् मन्येत्वा सत्त्वानामिन्द्रकेतुम् मन्येत्वा वृषभम् चर्षणीयाम् आयद्वज्रम् बाह्वोरिन्द्रदत्सेवदच्युतमः देहम् तवाहु प्रपर्वतानावन्तप्रगाप्रब्रह्माणो अभिरक्षम् इन्द्रम् समुष्टवामयैवाजरानविश्वा जातान्यवराण्यस्मात् इन्द्रेण मित्रेभिरुपो नमोभिर्वृषभम् वीषेम यत्रस्य त्वाशमाना विश्वे देवाज भुर्जे सखाजः मरुद्धीरिन्द्रलक्ष्यम् रे अश्वदेवा विश्वा पृतनाजयासि त्रिषष्टिस्त्वा मरुतो वावृधानामुस्राजीवरासयो जिज्ञियासः उपत्वेव कृतिरोः भागधेयम् सुष्मन्तजेनाहविषा विधेम जिग्मवायूढम् मरुदामणीकम् हस्तयुन्द्रप्रतिवज्रम् दधर्ष अनायुधासो असूरा देवाश्चक्रे नताम् अपवपरिजीषिन् महाभुग्राजपवसे सुभृक्तिम् प्रेरय शिवतमाय पश्वः निर्वाहसे इन्द्राय पूर्वीर्देहिरन्वे कुविरङ्गवेदत् उत्सवाहसे विद्वे मनीराम् गृणानपारमीरयानदीनाम् निःस्पृशधियान्वे श्रुतस्य दुष्टतरस्य कुविरङ्गवेदत् कर्दीमिड्ढियत्र इन्द्रोषस्तुभिरष्टुतिम् नमसा वीवास उपभूषयरि धर्मारूपण्यश्रावजावासम् भुविजङ्गवेदत् अपद्रत्सोऽहम् सुमतीमतिष्ठति जानकृष्णो दशभिः सहस्रैः आवत्तमिन्द्रः सच्चाधमन्तमपस्नेहिरेर्नृमणा अधत्त नक्सलापश्यम् विरोधेतरम् परे नद्योः अंसुमत्याः नभो न कृष्णमापदस्तिवाम् समिष्यामि वो वृषणो युध्यराजौ अधद्रप्सोऽहम् सुमत्याः उपस्ते धारयत्तन्वम् दिग्विषाणः दिशो अदेवीरभ्या आचरन् बृहस्पतीनाजुलेन्द्रः सदाहे तमभ्यो जायमानो शत्रुभ्यो अभवत् शत्रुरिन्द्र गृहेद्या वा पृथिवी अन्वविन्दो विभुवद्भ्यो भुवनेभ्योरनन्दाः त्वमहत्यप्रजमानमो जो वज्रेण वज्रेन्द्रितो जघन्थ त्वम् दुष्टस्यावाजिरोपधत्रैस्त्वङ्गायिन्द्रसच्चेदविन्दः त्वम् हत्यद्वेषभजर्षणीनाम् घनो रुद्राणाम् तविशोपभूथ त्वम् सिन्धोम् रजस्तस्तभानाम् त्वमवो आजयो दासपत्नीः सशुक्रदूरणीताय सुरेश्वरत्तमम् निर्जो अहेव देवान् यदेकयन्नर्यपाम् शिवर्ता सुवृत्रः प्रदीयमाहुः सवृत्रहेन्द्रश्च ऋणीदत्तम् दष्टुत्याहव्यम् भुवेम सप्राभिता भगवानोऽधिभक्तादवाजस्य श्रवस्य दाता सवृत्रहेन्द्रर्भुक्षा सद्यो जज्ञानो हव्योपभूव कृण्वन्नपाम् शिरर्या पुरो निशोमो न पीतो हव्यस्वः यायिन्द्रभुजाभरस्वर्वासूरेभ्यः सोदारमिन्नघमन्नस्य वर्धयजे सत्त्वे वृत्तपरिहिणः यमिन्द्रजिषेत्तमस्तङ्गाम् भागम् जयम् यजमाने सुन्वति यक्षीणावदितस्मिन्धे हिमापनौ यजेन्द्रस्य व्रतो निष्वापदेवयोः स्वैष्वये वैर्मुहुरत्पोष्यम् रजंसदर्धे हितम् ददाः यच्छक्रासीपदापदिगर्भापदि वृत्रहम् अजस्त्वाकेभ्यर्जुगलिन्द्रजयशिभिः सुता भाङ्गाभिवासति यद्वासीरोचने दिवस्य मुद्रस्याधिभिष्टपि यत्पार्थिवे सदने वृत्रहन्तभजदन्तरिक्षागहि सरस्तोमेषु सोमपासुरेषु सवसस्पदे मादयस्वराधसा सुमृता भजेन्द्र राजापरीणसा मा इन्द्रपरा वृणग्भवानस्वधमाद्याः त्वन्नभूति त्वमिन्नाब्रह्माण इन्द्रपरा वृणग् अस्मे इन्द्रसदा सुते निषदा भीतये मधु कृभीजरित्रे मघवन्नवो महदस्मे इन्द्रसदा सुते नत्वा देवास आसधनवर्चासो अद्रिवः विश्वा जाता निशपसाभिभूरसि नत्वा देवास आसत विश्वाः पृतनाभिभूतरन्धरम् सजोस्तदक्षुरिन्द्रम् जजनुश्च राजसे त्वा वरिष्ठम् वर आमुरीमुतोऽक्रमो जिष्ठम् तवसम् तरश्विनम् समीम् रेभासो अश्वरन्निन्द्रम् सोमस्य पीतये स्वर्पतिम् यदीम् हृदे धृतम् रतोह्यो च सा समूतिभिः नेमिम् न मन्ति चक्षसा मेषम् विप्रा अभिस्वरा सुदीतयो वो अद्रुहोऽभिगम्येतरश्विनः समृक्वभिः समिन्द्रम् यो हवीमि मघवानमुग्रम् सत्रा तथा नम प्रतिष्कृतम् समांसि मम् विष्टो येभिराच यज्ञियो भवत्तद्राजेनो विश्वा सुपथा कृणोतु भज्री तम्बुर इन्द्रजीरेणाभ्योजसाधविष्ठदक्रणाशयध्यैः त्वद्विश्वानि भुवनानि वज्रञ्जावाजे पृथिवीशभीषा कन्मरितमिन्द्रसूरचित्रवा त्वो न वज्रेन्दुरितातिवर्षिभूरि इन्द्रराजादस्य विश्वस्य सृहाय सरालम् भद्रम् नापि वादयमनाः ओ हरिः ओ इन्द्राय सामगाय विप्राय बृहते बृहते धर्मकृते विपश्चिते मनस्सवे त्वमिन्द्राभिभूरसितमनुजमरोचयः विश्वजलम् मा विश्वदेवो महाङ्गासि विभ्राजम् ज्योतिषा स्वा अलगच्छोरोजनम् दिवः देवास्त इन्द्रसख्याय जयविरे येन्द्रनोगधिप्रियः सत्राजिलवो ह्यः गिरिर्न विश्वरस्पृहस्पतिर्दिवः अभीषत्य सोमपा उभे बभूधरोदासी इन्द्रादीनो बृहस्पतिर्दिवः त्वम् यतस्वादीनामिन्द्रदत्ता पुरामसि हन्तादशोर्मणोर्बृहस्पतिर्दिवः अधायेन्द्रगर्वनमुपत्वा रामान् महत्स सृज्महे उदे वयन्द उदभिः वार्णत्वा यव्याभिर्वर्धनम् त्रिभूरब्रह्माणि वा वृद्ध्वांसम् चिदद्रिवो दिवे दिवे युञ्जम् दिहरीचिरसगाथयोरौ रथ उरुयुगे इन्द्रवाचोयुजा तन्न इन्द्रभरं भोजनम् सदक्रतो विदर्षणे आवीरम् वेदनाशहम् त्वम् हिनः पिता वसो त्वम् माता सदक्रमो बभूवीथ अधारेमहे त्वाम् सुष्मिन् पुरुहूतवाधयम् नमुपब्रुवे सदक्रतो सनोरास्वसुवीर्यम् त्वामिलाश्यो नरोपीप्यन्मज्रिन्भूर्णयः इन्द्रस्तोमवाहलाभिहस्वध्युपस्वतरमागहि मत्स्वादुतिप्रहरिवस्तदीमहे त्वे आभूषन्ति वेधसाः तपस्रवाम् सुपमान्युच्चासुतेष्मिन्द्रगर्वणः श्रायम् दलिवसूर्यम् विश्वेन्द्रस्य भक्षत वसूयाते जनमानभोजसा प्रतिभागन्नदीम अनर्धराजिन्वसुतामुपस्तुः भद्रा इन्द्रस्य रातयाः सोऽस्य कामम् विधरो नरोषजिमनोदानाय चोदयन् त्वमिन्द्रप्रदोक्ष्यश्वभि विश्वा अधिस्पृथाः असस्तिहा च निगाविश्वदूरधित्वम् दूर्यदर्शतः अनुते सूक्ष्मम् दुरयन्तरीयरोक्षोनेशुन्नमातराः विश्वास्ते स्मृतस्नथयन्तमन्यवे वृत्रम् यदिन्द्रदूर्वसि इत भूतीवो अजरम् प्रहेतारमप्रहितम् वासुन्देतारम् हेतारम् रचित मम दोत्तम् तुभ्यावृधम् निष्कर्तारमनिष्कृतम् सहस्कृतम् सतमूजिम् सदक्रतुम् समानमिन्द्रमवसे हवामहे वसमानम् वसूयुवम् अजन्तरेमि तन्वा पुरस्ताद्विश्वे देवा अभिमायन्ति पश्चात् यदा मह्यन्दीधरो भागमिन्द्रादिन्मया कृणवो वीराणि तथामि ते मधूनो भक्रमग्रे हितस्ते भागसुतोः सुसोमाः असत्सत्त्वम् दक्षिणसखामेधा वृत्राणि गङ्घना बभूवि असस्तोमम् भगवायन्द्राय सत्यम् यदि सत्यमस्ति नेन्द्रो अस्ति येव भूत्वा आहतीन्द्रदर्शकमभिष्टवान अयमस्मि जरितः पश्य मेघ विश्वाजातान्यभ्यस्मि मह्ना ऋतस्य वा प्रदिशो वध्वयम् जालद्धिरो भुवनादग्धरीणि आयन्मा वेनारोहन् ऋतस्याङ्गेकमासीनम् गर्यतस्य पृष्ठे मनश्चिन्मे हृदा प्रत्यावोचदधिक्रतम् शिशुमन्तः सखायः विश्वेतादेशवानेषु प्रभाच्याया जगच्छमघवन्निन्द्रजुन्वरे पारावधम् यत्पूरुषम् भृतम् अश्वपापेणाश्वरभाय ऋषिबन्धवे नूनम् धावता पृथम् मेहयोगो अपापदीत् ऋषीम् वृत्रशवर्मणि वज्रमिन्द्रो अपि वदत् मनोजवायमानायसीमदरत्पुरम् जिफलम् सुवर्णो गत्वा यशोमम् वज्रिणाभरत् समुद्रे अन्धस्य यत उद्रावज्रो अभिवृतः भरञ्जस्मै संयतः पुरप्रश्रवणबलिम् यद्वाग्वदन्त्यविचेतना निराष्ट्री देवानाम् निषसादमन्द्रा चतश्रमोद्रम् दुदुहे प्रजाम् श्रिक्वस्मिदस्याः परम् जगाम देवीम् वाजामदनन्ददेवास्ताम् विश्वरूपाः पशवो वदन्ति नो मन्द्रेणमूर्जम् दुहानाधेनुर्वागस्मानुपदुष्टुतैतु विष्णो वितरम् विक्रमस्वद्यौ देहि लोकम् वज्राय विष्कभे हणावभद्रम् मृगदासिन्धोलिङ्गस्य विसृष्टाः सर्वे देवतादये योरोणम् मित्रावरुणा भविष्टया चक्रे हव्यदादये परिषष्टक्षत्रावृषक्षसानरादाजानादीर्घश्रुत्तमा ताबाहुदानदंसनारसर्यतः साकम् सूर्यस्य रश्मिभिः मित्रावरुणा जिरो दूतो अद्रावत् अजस्येर्धामदे लघुः अजः संवृच्छेन पुनर्गवीतमेन संवादाजरमते तस्मान्नो अद्य समृतेरुरुष्यतम् बाहुभ्याम् नरुरुष्यतम् मित्राय प्रार्यग्नेन दच्छामृतावसो ोत्रम् राजसुगायत तेयम्बिरे अरुणम् जे जम्बस्वेकम् पुत्रम् श्रीणा ते धामान्यमृतामत्या नामदब्धा अभिलक्षते आमेव ताम् सुत्यताद्युमत्तमानिकत्वा ्यासोरसा प्रतिभव्यानि वीतये रक्षसम्भवामहे युवाभ्याम् वाजिनीमसु काजीम् गोत्राम् प्रदयन्ता विदन्नराविडानादमदग्निना आनो यज्ञम् ते विस्मृसंवादो याहि सुमन्नाभिः अन्तः पवित्रभुवरिश्रेणानोऽयम् शुक्रो आजामिते वेद्यध्वर्यः पतिभिरजिष्ठे प्रतिभव्यानि वीतये अदानियत्वभुभयस्य नः पिबसु चिन्तो मङ्गवादिकरम् ब्रह्माङ्गाजिरोर्जबलादित्यमहाङ्गासि महाङ्गसि वसोर्यश्रवसा महाङ्गसि सत्रादेव महाङ्गसि मह्नादेवानाम सूर्यः पुरोहितो विभर्जोधिरदाभ्यम् प्रियम् यानि चर्किणी रूपारोहिण्या कृता चित्रेव प्रत्यादर्शा यत्या अन्तर्दशसु बाहुषु प्रजाः तिस्रो अत्यायमे यज्ञा अन्या हर्तमहितो विविश्रे बृहद्धरस्तौभुवने स्कन्दप्रवमानो हरिकाविवेश माता रुद्राणाम् दुहिता वसूनाम् सुहादित्यानामृतस्य नाभिः प्रणवोचञ्चिकिनुषेदनाजमागामनागामदीधिम्बधिष्ठ वचोपितम् वाचामुदीरयम् दीम् विश्वाभिर्दीभिरुमतिष्ठमानाम् देवीम् देवेभ्यः पर्येयुषीम् गामावृत्तमत्योदभ्रेताः त्वमग्ने बृहद्वजो ददासि देवदासुरे कविर्गृहमधिर्युवा स नीलामया सह देवाग्ने तु वस्युवा चिकित्सीभानवावः भयम् ज्योतिष्ठेन यविष्यजसादये पौर्वभृगुवत्सुमप्रवाहूवे अग्निम् समुद्रवासनम् हुवे वातस्वनम् कविम् भर्जन्यक्रन्द्यम् सह अग्निम् समुद्रवासनम् आसवम् स विदुर्यथा भगस्येव भुजिम् भूवे अग्निम् समुद्रवासनम् अग्निम् वो बृहन्तमध्वराणाम् पुरोतमम् अच्छानत्रे सहस्वते अयम् यथा न आभुवत्प्रष्टा रूपे वरक्ष्याः अस्य कृत्वायसस्वतः अयम् विश्वा अभिसृजोऽग्निर्देवेषु पद्यते आवाजैरुपनोगमते विश्वेषामिहस्तु यहोदृणाम् यशस्तमम् अग्निम् यज्ञेषु पूर्वम् शीलम् वा वटसो जिहन्येष्वा शीलाय दीर्घश्रुत्तमः समर्वम् तन्नसा न सिङ्गृणीः मित्रसुष्मिनम् मित्रम् न जातयज्ञानम् उपत्वा रामयोगिरो देदि सदीर्हविष्कृताः वायोरणीके अस्थिरन् यस्य त्रिधा त्वमृतम् बलिस्तस्थावसन्दिनम् आपश्चिन्निदधा पदम् पदम् देवस्य मीरुषो नाधिष्टाभिरुचिभिः भद्रासूर्यायो भदृक् अग्नेस्य दीदिभिस्ते पानो देव शोचिषाः देवान् भक्षियक्षी च तन्वाजनन्दमातरः कविम् देवासो अङ्गिरः अव्यवाहममर्त्यम् रचेतसन्त्वाकवेग्ने दूतम् वरेण्यम् अव्यवाहम् निषेदिरे कविर्वेहस्य ज्ञानस्वधि गर्वनन्वति अथैतादृग्भरामिते यदग्नेकानिकानि चिदाते दारूणि गर्भसि ताजूषस्वयमिष्ठ यदद्युपजिह्वीकायध्वम् रोहति सर्वति सर्वम् तदस्तु ते घृतम् अग्निमिन्धा नो मनसाधियम् सजे नमत्याः अग्निमीधे विवस्वभि अदर्शिका दुवित्रमोयस्मिन् मृतान्यादयोः उपोषु जातमार्यस्य वर्धनमग्निम् नक्षन्तनो गिराः तथैवो दास अग्निर्देवाङ्गच्छानमग्मनाः अनुमातरम् पृथिवीम् विवामृते तस्थौ नाकस्य सानवि यस्माद्रेदन्तकृत्यानिगृह्मदः सहस्रताम् मेधसादाविभत्मनाग्निम्भिः स पर्यत अयम् राजेनिमत्तो यस्ते सोदासत् सवीरम् धत्ते आग्नमुत्थसंसिनम् सहस्रपोषिणम् सदृहेति दरिद्रेण दिवाजमर्वदासधत्ते अक्षीतिस्रवाः भद्रासदापुरोवसो विश्वा वामानि धीमहि यो विश्वादय देवसुहोता मन्त्रो जनानाम् मधोर्णपात्रा प्रथमान्यस्मै प्रस्तोमायन्त्वम् नगीर्भिरथ्यम् सुदानवो वर्मृजन्ते देवयवाः उभे लोके तनायेदस्मविश्वते परिषिराधो मघोनाम् क्रमम् भिष्ठाय गायतरिदाम्ने बृहते शुक्रसोचिषे उपस्तुतासो अग्नये आवम् सदे मघभाीरवद्यतः समिद्धोद्युम्नाहूतः सुभिन्नो अस्य सुमतिर्नवी यस्य छावादेभिरागमत् प्रेष्ठामप्रियाणाम् सुह्या सावादीतिम् अग्निम् रथानाम् यमम् उदीतायो निदीता वेदितावस्वा यज्ञयो ववर्तति दुष्टराजस्य प्रवणेनोर्मयो धिया वाचम् सिंहासदः मानोर्णीतावति शर्मसुरग्निः पूर्वप्रशस्तजेषः यस्तु होदास्वध्वरः मोदेरीषण्ये अच्छोक्तिभिर्वसोऽग्नेभिस्थिदेवैः कीरिस्थिद्धित्वामीर्टे दूत्याय रातः यस्वध्वरः आज्ञेयाहि भवत्सखारुद्रेभिः सोमपीतये सोभर्यामुपदष्टतिम् मादयस्व स्वर्णवे विश्वेश्वराय नमः ष्ठजापमस्वधारया इन्द्राय पादवे सुधाश्वरर्षणिमयोहरम्नासधस्तमासदते परिबोधातमो भवमम् गृष्टो वृत्रहन्तमः परिराधो भगोनाम् अभ्यर्गमानाम् देवानाम् दीतिमन्धसा अभिवाचमुतस्रवाः स्वामच्छादरामधिरधिरर्थम् दिवे दिवे इन्द्रोत्वेन आससाः पुनादिदेवरे श्रुतम् सोमम् सूर्यस्य दुहिता वारेण सस्वदातनाः तमेमन्वी समर्यागृभ्रम् द्योषणोदस सुसारपार्ये दिवि तमेव्यन्वम् जग्रुबोधमम् दिवाकुरम् धृतिम् दारु वारणम् मधु अमीमज्ञा उत श्रेणन्ति धेनवस्तुषम् सोममिन्द्राय पादवे अस्येन्द्रामदेष्वाविश्वामित्राणि जिघ्नते सूरो मघाच मङ्घते अवस्वदे भवीरम् सोमरम् या इन्द्रानिन्दो वृषामीश आवच्च स्वमहित्सरो वृषेन्दो द्युम्नवत्तमः आयोनिम् धर्नसि सदा अधक्षतम् प्रियम् मधुधाराः सुतस्य भेदसाः अपोपाशिष्टशुक्रतोः महान्तम् त्वामहीरन्वापो अरिडन्ति सिन्धवः यज्ञोभिर्वासयिष्यते समुद्रो अप्सुमाभृजेविष्टम्भो धरुणो दिवः सोमः पवित्रे अस्मयोः हरिक्रदृढाहरिर्महान् मित्रो न दर्शदः सूर्येण रोचते गिलस्तयम् दवोजसामर्मृज्यन्ते अपश्युवाः याभिर्मदाय शुम्भसे तम् वामदाय कृष्णाय भूलोककृत्रिमीमहे तव प्रशस्तयो महीः अस्मभ्यामिन्द्रेन्द्रयुर्मध्वस्वरस्वधारय पर्जन्या वृष्टिमाव घोषा इन्दो नृषास्य स्वसावायसा उत आत्मा यज्ञस्य पूर्या